बालकानां कृते बाइबल प्रस्तूयते यदा देवेन सर्वं निर्मितम्। लेखकेन एडवर्ड ह्यूजेस। www.m1914.org। केनस्माभिः निर्मितम्? बाइबल भगवत वाक्यम् वदति यद् इतम् लोकम् कथम् प्रारम्भम् जातः। चिरकाले देवेन सर्वप्रथमम् एकः मनुष्यः निर्मितम्, तथा देवेन तस्य संज्ञा कृतः आदमः। देवेन आदमम् भूम्याः भस्मेन निर्मितम्। यदा देवेन आदमाय जीवनम् दत्तम्, तदा आदमः जीवतः जातः। सः स्वम् ईडन नामके उद्याने प्राप्तम्। प्रथमं देवः आदमं निर्मितम्। देवेन बहु सुन्दरं जगतं निर्मितम्, जगते बहुशोभिः वस्तुभिः पूरितम्। अनन्तरं देवेन दीर्घकाय पर्वतान्, क्षेत्राणि, सुगन्धुतं पुष्पाणि, वृक्षान् च, बृहत् सपक्ष पक्षिण, मधुमक्षिकान्, महत् भेलमीना तथा च शम्बुकं निर्मितम्। देवेन सर्वं निर्मितं सर्वम्। आदि समये यद् किमपि देवेन निर्मितं तस्य पूर्वात् किमपि नासीत्। देवः एकमेव, न जनाः, स्थानानि, वस्तूनि वा किमपि न। न प्रकाशम् असीत्, न वा अंधकारं, न उपरि असीत्, न वा अधः, न ह्य असीत्, न वा स्व। एकमेव अनादि देवः असीत्। अनन्तरं देवः अरचितः। पूर्वे देवेन स्वर्गान्, पृथ्वीं च निर्मितम्। तथा च पृथ्वी तदा विरूपशून्य आसीत्, तदा तस्य मुखे अंधकारम् आसीत्। तदा देवेन उक्तं, तत्र प्रकाशं भवतु। तदा तत्र प्रकाशः जातः। देवेन तदा प्रकाश समयस्य संज्ञां दिनं, तथा अंधकार समयस्य संज्ञां रात्रि कृतः। तदा तत्र रात्रि दिवसस्य संज्ञां प्रथम दिनम् आसीत्। द्वितीय दिने देवं समुद्रानां जलानि, सगरान्, सरोवरान् च स्वर्गस्य अंतर्गते नियमितं कृतः। तृतीय दिने देवः उक्तवान्, शुष्कं भूमिः उत्प्लवेत्, तथा एतत् अभूत्। देवेन तृणान्, पुष्पान्, विटपान् वृक्षै सम्मुखी भवनाय आदिशत्। तदा ए दृष्ट, एतत् रात्रि दिवसस्य तृतीय दिनम्। अनन्तरं देवः सूर्यं, चंद्रं तथा अगणित नक्षत्राणि निर्मितम्, तथा चतुर्थ दिने संध्यां प्रातः कालं च निर्मितम्। अनन्तरं जल जन्तुनानि, मीनान् तथा खगान् च निर्मितम्। पंचम दिने देवः बृहत् सवर्ण मीनम्, लघु सार्डिन मीनम्, दीर्घपादम शुतमुर्ग पक्षिणम् तथा च मधुरम ध्वनिम कृतवन् लघु पक्षिणम् निर्मितम्। देवः सर्वान् प्रकरान् मीनान् निर्मित्वा भूम्याः जलं पूरितम्, तथा च सर्वान् प्रकरान् पक्षिणः निर्मितम्, येन तेन भूम्यां समुद्रत च आकाशत सुखं प्राप्तेयुः। तथा पंचम दिने संध्यां प्रातः कालं च निर्मितम्। तदंतरं देवेन पुनः उक्तं, स अवदत्, भूमि जंतुनानि उत्पन्नं करणीयं, सर्वानि प्रकाराणि पशवः, कीटान्, सरीसृपानि च जीवनं प्राप्नुवं, महाकाय गजः सेतृदान् च निर्मितं, वानरान्, मकरान् च, किञ्चुलूकान्, चिक्रुडान् च, चित्रोष्टान्, बिडालः च, देवेन सर्वानि जीवजन्तानु निर्मितम्। एवं च एतत् रात्रि दिवसस्य षष्ठ दिनम्। देवेन षष्ठ दिने इतोपि किमपि कृतं, बहु विशिष्टं मनुष्यस्य कृते इदानीं सर्वम् उपस्थितम् आसीत्। कृषिषु भोजनं, सेवायां पशवः। देवेन उक्तं, मया मम अकृतिषु मनवानां निर्माणं करणीयं, तस्मै जगति सर्वाशां स्वामी भवनीयम्। अनन्तरं देवेन स्व आकृतिषु मानवं निर्मितं, तथा भगवत रूपेण स्वनिर्माणं कृतम्। देवः आमदेन उक्तं, यत् किमपि भवान् खादितुम् इच्छति उद्याने गत्वा खादतु, परिच्य तस्मिन् वृक्षात् मा खादतु यस्मिन् सत्य असत्य ज्ञानं वर्तते, यदि भवान् तस्मिन् वृक्षात् खादिष्यति निश्चयेन मरणं प्राप्स्यति। अनन्तरं देवम् उक्तम्, एतत् सम्यक् नास्ति यत् मनुष्यः एकाकी अस्ति, अतः तस्य कृते कोऽपि भवेत्। तदा देवेन सर्वानां पशुपक्षीन् आदमस्य समीपे आनीतवान्। आदमेन तेषां संज्ञा कृतः, अवश्यमेव अस्य कार्यस्य कृते सः बहुचतुरः भवेत्। परीच्य पशुपक्षिषु समीपे आदमस्य कृते कोऽपि उपयुक्तं मित्रं नासीत्। देवः आदमं चिरनिद्राम् अस्वपत्। देवेन तस्मात् सुप्त मनुष्यात् एकं पार्श्वस्थ गृहीत्वा एतस्मात् पार्श्वस्थात् नारीम् अरचत्। सा नारी आदमस्य महभागिनी वभूव। देवेन षड् दिनेषु सर्वं निर्मितम्, एवं च सप्तम दिनं निर्मितम्, तथा तत् दिनं विश्रामस्य निर्मितम् स्वर्गस्य उद्याने। आदम एव सह सुखेन अनिवसत्, तथा देवस्य आज्ञापलितं कृतः। देवः तयो देवः अन्नदाता मित्रं च आसीत्। यदा देवेन सर्वं निर्मितं, बाइबल इति कथा भगवत वाक्यं प्राप्नुयाम् उत्पत्ति एक। भवतां वाक्यम् अस्माभिः प्रकाश्यते, भक्तिगीतं क्रमांक 119-130। देवः जानाति वयम् अनुचित कार्यान् कृतवन्तः, यान् स पापं कथयति, पापस्य दण्डनं मृत्यु वर्तते। देवः अस्मान् स स्नेहति, स स्वीकीयम् एकमेव पुत्रः जीजस् इत्ययं प्रेषितवान्, यः क्रोस् चिह्ने मृतः तथा अस्माकं पापानां कृते दण्डे प्राप्तवान्। तदा सः पुनरागत्य जीवनं प्राप्तवान्, स्वर्गश्च गतवान्। अधुना देवः स्वपापानां कृते क्षमां दातुं शक्यते। यदि त्वं स्वपापैः निवर्तनं वाच्छसि, तदा स्वदेवेन प्रार्थय, हे देव, अहं विश्वसामि यत् भवानेव देव तथा मानवरूपं धृत्वा मदीयं पापानां कृते निर्यायति, एवम् अधुना पुनः अधिवसते। हे देव, मम जीवने आगत्य मदीयं पापैः विमुच्छतु, येन अधुना मां नूतन जीवनस्य प्राप्तिर्भवेत्, एवं कस्य चिह्निन्ने भवता समीपे सदैव निवसामि। मम सहायं करोतु, यद् अहं भवताम् आज्ञां परिपालयामि तथा भवताम् समीपे पुत्रवत् एवं निवसामि। बाइबल पठन्तु तथा च देवेन सह प्रतिदिनं वार्ता कुर्वन्तु।